हरि स्फुटं स्फटिक सप्रभं स्फुटितहाटकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयं तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत् कदानुशितिकण्ठते वपुरवेक्षते वीक्षणम् त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान् अघोररिपुघोरते नवमवामदेवाञ्जलिः नमः सपदि जातते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय रसाघनरसानलानिलवियद्विवस्वद्विधो प्रयष्टुषु निविष्टमित्यज भजामि मूर्त्यष्टकम् प्रशान्तमुत भीषणम् भुवनमोहनम् चेत्यहो वपुंषि गुणपुंषि तेऽहमहमात्मनोऽहम् भिदे विमुक्तिपरमाध्वनाम् तव षडध्वनामास्पदम् पदम् निगमवेदिनो जगति वामदेवादयः कथञ्चिदुपशिक्षिता भगवतैव संवित्रते वयम् तु विरलान्तरा कथमुमेष तन्मन्महे कठोरितकुठारया ललितशूलया वाहया रणढमरया स्फुरद्धरिणया सखट्वाङ्गया चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतः चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् पुरत्रिपुररन्धनम् विविधदैत्यविध्वंसनम् पराक्रमपरम्परा अपि परा न ते विस्मयः अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयोः ज्वलज्ज्वलनहेलया शलभितम् हि लोकत्रयम् सहस्रनयनो गुहः सहस्ररश्मिर्विदुः बृहस्पतिरुतात्पतिः ससुरसिद्धविद्याधराः भवत्पदपरायणा श्रियमिमामगुः प्रार्थिनाम् भवान् सुरतरुर्दृशम् दिश शिवाम् शिवावल्लभा तव प्रियतमादति प्रियतमम् सदैवान्तरम् पयस्युपहितम् घृतम् स्वयमिव श्रियो वल्लभम् विभिद्य लघुबुद्धयः स्वपरपक्षलक्षायितम् पठन्ति हि लुठन्ति ते षटर्दशुचाशुण्ठिताः निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धिया तथापि भवतः पदम् शिव शिवेत्यदो जल्पताम् अकिञ्चन न किञ्चन वृजिनमस्त्यभस्मी भवत् त्वमेव किल कामधक् सकल काममापूरयन् अपि त्रिनयनः सदा वहसि चात्रिनेत्रोद्भवम् विषम् विषधरान्दधत् पिबसि तेन चानन्दवान् विरुद्धचरितोचिता जगदधीशते भिक्षुता नमः शिव शिवा शिवा शिव शिवार्धकृन्ता शिवम् नमो हर 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 हरान्तरीमे दृशम् नमो भव भवा भव प्रभव भूतये सम्पदाम् नमो मृड नमो नमो नम उमेश तुभ्यम् नमः सतां श्रवणपद्धतिम् सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाकुरात् प्रतिकृतात् सदा सोदिता इति प्रथितमानसो व्यथितनामनारायणः शिवस्तुतिमिमां शिवाम्बिकुचसूरिसूनुःसुधीः। श्रीनारायणपण्डिताचार्य विरचिता शिवस्तुतिः सम्पूर्णम्।